इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयताम् प्रवाचकः पुनीत त्रिपाठी। अथ वार्ताः। भारतस्य रिटेल इति अल्पविक्रयक्षेत्रे अस्मिन् वर्षे नवरात्रि दीपावली पर्वयोः मध्ये उत्सवकालस्य विक्रयणं सर्वाधिकं जातम्, यस्मिन् वस्तूनां व्यापारः अभूतपूर्वरूपेण 4.5 लक्षकोटिरूप्यकाणि, तत्रैव 65,000 कोटिरूप्यकाणि यावत् सेवानां च अभूतपूर्वस्पर्शः अभवत्। अखिलभारतीय व्यापारि परिसंघेन आयोजिते राष्ट्रव्यापि सर्वेक्षणे ज्ञातं यत् गतवर्षस्य समानकालस्य तुलनायां समग्रव्यापारः 25% यावद् वर्धितः। सर्वेक्षणे अग्रे सूचितं यत् प्रायः 270% यावत् व्यापारिणः सूचितवन्तः यत् अधिकविक्रयपरिमाणं मुख्यतया जीएसटी इत्यस्य मूल्येषु ह्रासेन अभवदिति। 22,100 विधानसभाक्षेत्राणां कृते द्वितीयान्तिमचरणयोः नामाङ्कनपत्राणां परीक्षणं ह्यः सम्पन्नम्। प्रक्रियायाः समये पूर्वीयचम्पारणमण्डलस्य सुगौली विधानसभाक्षेत्रस्य बीआईपी इति विकासशील इंसान दलस्य अभ्यर्थिनः नामाङ्कनपत्रं प्रस्तावकानाम् अल्पसंख्यायाः कारणात् अस्वीकृतम्। अवधेयं यत् द्वितीये चरणस्य कृते मतदानम् अग्रिमे मासे 11 दिनांके भविष्यति। नामाङ्कनपत्राणां प्रत्यावर्तनं श्वः भविष्यति। निर्वाचनायोगेन उक्तं यत् नागरिकाः राजनैतिकदलानि च अधुना ECINET मञ्चे सी विजिल ऐप इत्यस्य उपयोगेन आदर्शाचारसंहितायाः उल्लङ्घनसम्बन्धाक्षेपान् निवेदयितुं शक्नुवन्ति। आयोगेन एकस्मिन् वक्तव्ये उक्तं यत् दूरवाणी केन्द्रसंख्या 1950 समेत्य परिवादनिरीक्षण व्यवस्थापि स्थापितास्ति। रेलमन्त्री अश्विनी वैष्णवः अवदत् यत् दीपावली छठ पर्वयोः यात्रिणां जनसम्मर्दस्य आवश्यकतां पूरयितुम् आगामिषु दिनेषु प्रायः 8,000-7,000 यावत् विशेष रेलयानानि चालयितुं रेलविभागेन योजना कृतास्ति। अपि च उत्सवस्य जनसम्मर्दस्य निरीक्षणार्थम् आपत्कक्षापि स्थापिताः सन्ति। मन्त्री ह्यः नवदिल्ल्याः रेलस्थानकं गत्वा उत्सवावधौ यात्रिणां कृते कृतानां व्यवस्थायाः मूल्याङ्कनं कृतवान्।
कई पैसेंजर्स को पूछा है, उन सबने व्यवस्था के ऊपर अच्छा सेटिस्फेक्शन व्यक्त किया है। और किसी एक बहन ने तो कहा था कि 14 वर्षों से वो अपने यही दिवाली छठ के काम जाती है, लेकिन इस साल का उनको सबसे अच्छा लगा। मेहनत कर रही है पूरी टीम और करीब करीब अब तक स्पेशल्स में 1 करोड़ से ज़्यादा पैसेंजर्स जा चुके हैं। प्लस ये जो दिल्ली एरिया है, केवल दिल्ली एरिया में ऑन एन एवरेज डेली 4.25 लाख लोग जा रहे हैं।
दिल्ली राज्यस्य मुख्यमन्त्री रेखा गुप्ता ह्यः प्रधानमन्त्रिणा नरेन्द्र मोदिना सह मिलित्वा दीपावल्याः शुभकामनाः प्रदत्तवती। श्रीमती गुप्ता दिल्लीनगरस्य विकासकार्याणां स्वच्छ यमुनाभियानस्य आगामि छठ उत्सवस्य सज्जतायाः च विषये अपि श्रीमोदिनम् उक्तवती। यमुनानद्याः पुनरुज्जीवनार्थं तस्याः सर्वकारस्य निरन्तरप्रयासानां विषये दिल्लीराज्यस्य मुख्यमन्त्री श्रीमोदिनं सूचितवती। सावोचत् यत् दिल्ली सर्वकारः मलनिर्गमन शोधनक्षमतां वर्धयित्वा आधुनिक अपशिष्ट जलप्रौद्योगिकीनां माध्यमेन औद्योगिक अपशिष्टानां निर्गमनस्य कठोरतया निरीक्षणं कृत्वा नदीं स्वच्छं प्रदूषणमुक्तं च कर्तुं प्रतिबद्धः अस्ति इति। श्रीमती गुप्ता अवदत् यत् नदीतीरेषु हरितक्षेत्राणि विकसितानि सन्ति, नद्याम् अवैधरूपेण अवशिष्टानां निक्षेपं निवारयितुं च उपायाः कृताः सन्ति। आईसीसी महिलानाम् एकदिवसीय क्रिकेट विश्व चषक स्पर्धायां कोलम्बो नगरस्य आर प्रेमादास क्रीडाङ्गणे दक्षिणाफ्रीकादलेन DLS पद्धत्या पाकिस्तानं 150 धावनांकैः पराजितम् इति वार्ताः।